इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। केन्द्रीय मन्त्रिमण्डलेन अद्य 95,000 कोटि रूप्यकाणां 6 प्रस्तावेभ्यः अनुमतिः प्रदत्ता। केन्द्रीय मन्त्रिमण्डलेन अद्य भारतस्य जलपोत निर्माणं सामुद्रिक पारिस्थितिकी तन्त्रञ्च पुनर्जीवयितुं 25,000,000,179 कोटि रूप्यकाणां आर्थिक सम्पुटः अनुमोदितः। विदेशमन्त्रिणा डॉ एस जयशंकरेण न्यूयॉर्क नगरे वैश्विक दक्षिण देशानां उच्चस्तरीय सभायाः आध्यक्षं विहितं, सहैव विद्यमान मञ्चानां सदुपयोगाय अपि आह्वानं कृतम्। युवक्रीडा मन्त्रालयेन 26,000,000 एशियाई क्रीडा स्पर्धायां अन्यासु च स्पर्धासु क्रीडकानां दलानां च कृते चयन मानदण्डाः प्रकाशिताः। अपि च पुरुष 20-प्रति 20 एशिया चषक प्रतिस्पर्धायां दुबई नगरस्य अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे अद्य भारतदलं बांग्लादेशेन सह स्पर्धिष्यति। अथ वार्ताः विशदीकृत्य। केन्द्रीय मन्त्रिमण्डलेन अद्य 95,000,000 कोटि रूप्यकाणां 6 प्रस्तावेभ्यः अनुमतिः प्रदत्ता। केन्द्रीय मन्त्रिमण्डलेन अद्य भारतस्य जलपोत निर्माणं सामुद्रिक पारिस्थितिकी तन्त्रञ्च पुनर्जीवयितुं 25,000,000,179 कोटि रूप्यकाणां आर्थिक सम्पुटः अनुमोदितः। नवदिल्ल्यां संचार माध्यमिकान् विज्ञापयन् केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् अद्यतनीये मन्त्रिमण्डलीयोपवेशने स्वीकृताः निर्णयाः विविध क्षेत्राणि व्याप्नुवन्ति।
करीब 95,000 करोड़ रूपीज के टोटल फैसले आज के कैबिनेट मीटिंग में हुए हैं। कई सेक्टर्स को कवर करते हैं ये फैसले। रेलवे, हाईवे, रेलवे के बोनस का विषय है, शिप बिल्डिंग में मेजर रिफॉर्म है, हमारी ह्यूमन रिसोर्स रिसर्च एंड डेवलपमेंट एक्टिविटीज के लिए, रिसर्च एक्टिविटीज के लिए फेलोशिप का प्रोग्राम और मेडिकल एजुकेशन में नंबर ऑफ सीट्स को बढ़ाना।
श्री वैष्णवेन प्रोक्तम यत् भारतस्य सामुद्रिक पारिस्थितिकी तन्त्रं पुनर्जीवयितुम् अयं सम्पुटः चतुस्तम्भात्मकं दृष्टिकोणं प्रकाशयति। तेषु स्वदेशीय क्षमतायाः दृढीकरणं, दीर्घकालिक वित्तपोषणे परिष्कारः, ग्रीनफील्ड ब्राउनफील्ड क्षेत्रयोः विकासः इत्येते विषयाः अन्तर्भवन्ति। सर्वकारेण 10.91 लक्ष रेल कर्मचारिभ्यः 65,800,000,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00,00, देशे स्नातक चिकित्सा शिक्षा क्षमतायाः विस्ताराय अपि सहमतिः प्रकटिता। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण न्यूयॉर्क नगरे वैश्विक दक्षिण देशानां उच्चस्तरीय सभायाः अध्यक्षं विहितम्। वस्तुतः संयुक्त राष्ट्र महासभायाः इदम् 80तमं सत्रमासीत्। अत्रावसरे जयशंकरेण वैश्विक दक्षिण देशेषु परस्परं परामर्शं दृढीकर्तुम् ऐक्यञ्च प्रवर्तयितुं विद्यमान मञ्चानां सदुपयोगाय आह्वानं कृतम्। तेन संयुक्त राष्ट्रे समग्रे बहुपक्षवादे च परिष्कारार्थं कश्चन प्रस्तावोऽपि उपस्थापितः। एकस्मिन् सामाजिक संजालीय सन्देशे डॉ जयशंकरः प्रोक्तवान् यत् सम्मेलनावधौ सः सिंगापुरस्य विदेशमन्त्रिणा विवियन बालकृष्णन, सेंट लूसियायाः विदेशमन्त्रिणा अल्वा बैप्टिस्ट, सोमालियायाः विदेशमन्त्रिणा अब्दिसलाम अली इत्येतैः सह मिलितवान्। स्वीयेन डच समकक्षेण डेविड वैन विल इत्यनेन सहापि असौ संवादं साधितवान्। तत्र तावत् यूरोपीय रणनीतिक स्थितेः विषये, भारतस्य दृष्टिकोणस्य च विषये गंभीर चर्चा समभवत्। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य भारतस्य स्वास्थ्य परिवर्तनस्य वर्धमान मान्यता राष्ट्रिय विकासस्य मुख्यस्तम्भरूपेण प्रकाशिता। श्रीमोदिना प्रसिद्ध हृदरोग विशेषज्ञेण डॉ देवी प्रसाद शेट्टी वर्येण लिखितः लेखः टाइंग हेल्थ टू प्रोडक्टिविटी इत्येषः प्रकाशितः। तेन प्रोक्तं यत् आयुष्मान भारत पोषण अभियानं, स्वच्छ भारतम् इत्येते प्रयासाः केवलं सार्वजनिक स्वास्थ्य परिणामानेव न परिष्कुर्वन्ति, अपितु अर्थव्यवस्थामपि दृढीकुर्वन्ति। श्री मोदिना प्रोक्तं यत् स्वास्थ्यम् अपव्ययः न वर्तते अपितु निवेशः वर्तते अस्य प्रभावेण शासनं समृद्धिः च प्रवर्धते। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair इति चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्रोक्तवती यत् भारतस्य आर्थिक शक्तित्वेन वर्धमान प्रतिष्ठया सह सांस्कृतिक शक्तित्वेनापि भारतस्य ख्यातिः प्रसरेत्। एतदर्थं तया सबलं सामूहिक प्रयासानाम् आवश्यकता प्रतिपादिता। नवदिल्ल्यां ललितकला अकादम्या आयोजिते चतुष्षष्टितमे राष्ट्रिय कला प्रदर्शनी समारोहे भाषमाणा सा अवदत् यत् कला सांस्कृतिक न्यासस्य सम्पन्नतायै संवेदनशील समाजस्य निर्माणाय च सशक्त साधनमस्ति। सा एतदपि प्रोक्तवती यत् भारतीय कला निरन्तरं विकसति।
ललित कला अकादमी इस वर्ष कलाकारों की कलाकृतियों की बिक्री को प्रोत्साहित कर रहे हैं। ये कलाकारों को आर्थिक संबल प्रदान करेगा और हमारी क्रिएटिव इकोनॉमी को मजबूत बनाएगा। मैं कला प्रेमियों से भी अपील करूंगी कि आप केवल कलाकृतियों को सराहे नहीं बल्कि उन्हें अपने साथ अपने घर भी ले जाएं।
केन्द्रीय वाणिज्योद्योग मन्त्रिणा पीयूष गोयलेन प्रोक्तं यत् भारतम् आगामि पञ्चवर्षेष् स्वच्छोर्जायाः विस्ताराय उत्कृष्ट स्थितिं समासादयति। न्यूयॉर्क नगरे आयोजितं यूएस इंडिया स्ट्रेटेजिक पार्टनरशिप फोरम इत्येतं सम्बोधयता श्री गोयलेन प्रोक्तं यत् सर्वकारः स्वच्छ ऊर्जा क्षमतां 50+ गीगावाट परिमितात् 50+ गीगावाड मितं यावत् वृद्धिं कर्तुमिच्छति। तेन प्रोक्तं यत् भारतदेशः आगामि वर्षेष् ऊर्जा उत्पादनानां व्यापारं अमेरिकादेशेन सह वर्धयितुमिच्छति। श्रीगोयलः उक्तवान् यत् भारत अमेरिकादेशौ नाभिकीय ऊर्जाक्षेत्रे सहकारी योजनायाः निर्माणं कर्तुं शक्नुवन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना नागरिकाः उत्साहपूर्वकं ऑनलाइन सघोष विक्रये भागग्रहणाय प्रेरिताः। तत्र तावत् तेन विविध कार्यक्रमेषु सम्प्राप्ताः उपहाराः प्रदर्शिताः भवन्ति। सामाजिक संजालीय सन्देशे प्रधानमन्त्रिणा प्रोक्तं यत् सघोष विक्रये प्राप्तराशिः नमामि गंगे योजनायां योगदानं करिष्यति। अस्याः योजनायाः उद्देश्यं गंगानद्यः संरक्षणं पुनरुद्धारं चास्ति। निर्वाचनायोगेन अद्य जम्मू कश्मीर राज्यतः राज्यसभायाः 4 आसनानां कृते द्विवार्षिक निर्वाचनं घोषितम्। एतानि सर्वाणि 21+ वर्षस्य फरवरी मासतः रिक्तानि सन्ति। आयोगेन पंजाब राज्यात् राज्यसभायाः 1 आसनाय निर्वाचनस्य घोषणा कृता। निर्वाचन सूचना आगामि मासस्य 6 प्रकाशयिष्यते। मतदानं मतगणनं च अक्टूबर मासस्य 24 दिनांके भविष्यति। सुपर टाइफून रागासा इत्यनेन ताइवान हांगकांग फिलीपींस दक्षिण चीन देशेष् महती क्षतिः दुरापादिता। अस्माद्धेतोः ताइवान देशे 14 जनाः मृताः 8 जनाः व्रणिताः समभवन्। प्रचण्ड वृष्ट्या ताइवान देशस्य पूर्वी उत्तरी दक्षिण तटीय क्षेत्राणि प्रभावितानि। अनेन फिलीपींस देशेऽपि 4 जनाः मृताः। युवक्रीडा मन्त्रालयेन 26+ वर्षस्य एशियाई क्रीडा स्पर्धायाम् अन्यासु च स्पर्धास् क्रीडकानां दलानां च कृते चयन मानदण्डाः प्रकाशिताः। अयं निर्णयः तावत् पारदर्शी न्याययुक्तस्य आधारस्य निर्माणाय गृहीतः। पुरुष 20-प्रति 20 एशिया चषक प्रतिस्पर्धायां दुबई नगरस्य अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे अद्य भारतदलं बांग्लादेशेन सह स्पर्धिष्यति। एषा स्पर्धा अद्य रात्रौ 8 समारप्स्यते। अद्य विजयीदलं अन्तिम स्पर्धायां स्वस्थानं सुनिश्चेष्यति। इति वार्ताः।